एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। स्वास्थ्य जनसंख्या मन्त्रालयेन उपत्यकायां वायु प्रदूषणस्य वर्धनेन सहैव उच्च सावधानताम् अवलम्बितुं सर्वे अनुरुद्धा वर्तन्ते। मन्त्रालयेन ह्य विज्ञप्तिं प्रकाश्य विश्वस्य वायोः गुणस्तरस्य मापकस्य AQI इति प्रविधे सूचकांकानाम् अनुसारेण कतिपय दिनेभ्य नेपालः अत्यधिक प्रदूषित देशानां सूच्यां समापतितोऽस्तीत्यतः सावधानताम् अवलम्बितुं सर्वे अनुरुद्धा वर्तन्ते। मन्त्रालयस्य प्रवक्ता डाक्टर प्रकाश बुढाथोकी सम्प्रति वायोः प्रदूषणस्य कारणेन श्वास प्रश्वासयोः समस्यायाः, नासिका कण्ठादिषु विकारस्य, त्वचि समस्यायाः, हृदय रोगस्य, दीर्घकालिक स्वास्थ्य समस्यायाश्च दर्शनस्य सम्भावनया संवेदनशील समूहस्य बालबालिकाः, वृद्धवृद्धाः, गर्भवत्यः महिलाः, दीर्घरोगिणश्च विशेषेण सावधानताम् अवलम्बितुं परामृशत्। स्वास्थ्य मन्त्रालयेन अत्यावश्यक कार्याणि विना गृहात् बहिः न निर्गन्तुम्, यात्रायाः समये अनिवार्येण मुखाच्छादिकां परिधातुम्, अत्यधिक प्रदूषण क्षेत्राणि न गन्तुञ्च साधारणजनाः अनुरुद्धा वर्तन्ते। अत्रान्तरे राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन वायु प्रदूषणं नियन्त्रयितुं सर्वैः स्वस्व क्षेत्रात् प्रयतनाय स्वास्थ्ये विशेषेण सावधानताम् अवलम्बितुं च अनुरुद्धमस्ति। उष्णतायाः वर्धनेन दावानलस्य, मार्ग निर्माण कार्यस्य, औद्योगिक क्रियाकलापानां च कारण हि वायु प्रदूषणस्य स्तर उच्चबिन्दौ प्राप्तोऽस्ति इति ज्ञापितम् वर्तते। प्राधिकरणेन वायु प्रदूषणस्य कारणेन श्वास प्रश्वासयोः समस्या, नेत्र ज्वलन समस्याः, त्वचि विकृतिः, शिरोवेदना चेत्यादयः स्वास्थ्य समस्यानां वर्धनस्य सम्भावना भवति इति उल्लिखितं वर्तते। प्रधानमन्त्री केपी शर्मा ओली निगदति मानवजातेः सुरक्षितस्य, समृद्धस्य च भविष्यस्य कृते संयुक्त प्रयासस्य आवश्यकता वर्तते। थाइल्याण्ड देशस्य बैंकक नगरे विद्यमानेन प्रधानमन्त्रिणा ओलिना एशियन इन्स्टिच्यूट अफ टेक्नोलॉजी नामाख्याम् AIT इति संस्थायां ह्य आयोजितं कार्यक्रमं सम्बोधयन् समृद्धये सुरक्षायै आत्मसम्मानाय च नेपाल सर्वकारेण कार्यं विधीयमानम् अस्ति इति अवदत्। नेपाल सर्वकारेण कार्यं विधीयमानम् अस्ति इति उक्तं वर्तते। प्रधानमन्त्री ओली जलवायु परिवर्तनेन सहितानां विश्वव्यापिनीनां समस्यानां सम्बोधनाय राष्ट्रिय रूपेण, क्षेत्रीय रूपेण, विश्वव्यापितया च संयुक्ते प्रयासे बलं ददत् विश्वसमुदायम् अनुरुणत्। प्रधानमन्त्री ओली AIT संस्थया नेपाले अन्वेषणानुसन्धानस्य कृते स्थापिते वित्तकोषे एकलक्ष्य अमेरिका देशीय डलर मुद्रां स्थापयितुं घोषणाम् अकरोत्। थाइल्याण्ड देशस्य कृते नेपाली राजदूतः धनबहादुर ओली AIT संस्थया सहकार्यं प्राथमिकतायाम् अस्ति इति अवदत्। प्रधानमन्त्रिणा ओलिना सह थाइल्याण्ड देशस्य व्यवसायीभि मेलवार्ता विहिता अस्ति। तदवसरे नेपाली व्यवसायी प्रतिनिधिमण्डलस्य सदस्याः अपि सहभागिनः आसन्। प्रधानमन्त्रिणा ओलिना सहिता बिम्स्टेक संघटनस्य सदस्य राष्ट्राणां प्रधानमन्त्रिणः थाइल्याण्ड देशे एकीभूताः सन्ति। थाइल्याण्ड देशे विद्यमानस्य प्रधानमन्त्रिणः ओलिनः म्यान्मार देशस्य प्रधानमन्त्रिणः मिन आङ हालिङ इत्यस्य च मध्ये ह्य मेलवार्ता सम्भूता अस्ति। तदवसरे अनयोर्मध्ये द्विपक्षीयस्य, क्षेत्रीयस्य, बहुपक्षीयस्य च विषयेष् विमृष्टमासीत्। थाइल्याण्ड देशस्य प्रधानमन्त्रिणा पेथोङ थानसिनावत इत्यनया शीर्षनेतृणां कृते आयोजिते रात्रिभोजन समारोहे नेतारः सहभागिन अभवन्। थाइल्याण्ड देशस्य औपचारिकं भ्रमणं प्रपूर्य प्रधानमन्त्री ओली बिम्स्टेक शिखर सम्मेलने सहभागी अभवत्। प्रधानमन्त्रिणा ओलिना श्रीलंका देशस्य प्रधानमन्त्रिणा डाक्टर हरिनी अमरासुरिया इत्यनया सहापि पूर्वेद्युः मेलवार्ता विहिता अस्ति। एवमेव प्रधानमन्त्रिणः ओलिनः भूटान देशस्य प्रधानमन्त्रिणः छिरिङ तोब्गे इत्यस्य च मध्ये मेलवार्ता सम्भूता अस्ति। मेलवार्तायां द्वयोः देशयोः सहकार्यस्य विविधेषु पक्षेषु विमृष्टमासीत्। एवमेव प्रधानमन्त्रिणा ओलिना सह संयुक्तराष्ट्रसंघस्य ऐशैक प्रशान्तक्षेत्रस्य कृते सामाजिकार्थिक आयोगस्य कार्यकारी सचिवेन अमिदासलाई हैतेनिन मेलवार्ता विहिता अस्ति। तदवसरे नेपाली सहकार्यस्य नेपालस्य विकासशील राष्ट्रिय स्तरोन्नतये सहयोगस्य च विषयेषु विमृष्टमासीत्। मधेश विषयं प्रभावकारी रूपेण उत्थापयितुं मधेश केन्द्रितैः सप्तभिः दलैः संघीय लोकतान्त्रिक समिति संघटिता अस्ति। काष्ठमण्डपे ह्य आयोजिते कार्यक्रमे समतामूलां न्यायपूर्णां व्यवस्थां स्थापयितुं तराई मधेश केन्द्रितैः दलैः संघीय लोकतान्त्रिक समितिः संघटिता अस्ति। संयुत्यां तराई मधेश केन्द्रित जनमत दलम, जसपा नेपालम, लोसपा नेपालम, नागरिकोन्मुक्ति दलम, राष्ट्रिय मुक्ति दलम, जनता प्रगतिशील दलम, तमलोपा दलम च सन्ति। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भाषते लोकतन्त्रस्योपरि प्रतिक्रियावादिनां षड्यन्त्रं जायमानमस्ति। बाँकी जनपदस्य प्रेस सेन्टर नेपालेन ह्य नेपालगंज नगरे आयोजिते पत्रकार सम्मेलने अध्यक्ष प्रचण्ड लोकतन्त्रस्योपरि आक्रमणस्य प्रयत्ने जायमानेऽपि प्रमुखाणि सर्वाणि दलानि लोकतन्त्रं प्रति प्रतिबद्धानि सन्तीत्यतः विद्यमानां व्यवस्थाम् इतोऽपि सुदृढां समृद्धां च विधातुम् यत्नः करणीयः इति उदैरयत्। सर्वकारेण आन्दोलनरताः शिक्षकाः वार्तायै आहूताः सन्ति। शिक्षा विज्ञान प्रविधि मन्त्रालयस्य प्रवक्त्रा शिवकुमार सापुटाभिदेन ह्य विज्ञप्तिं प्रकाश्य काष्ठमण्डप केन्द्रितम् आन्दोलनं कुर्वाणाः शिक्षकाः आन्दोलनं त्यक्त्वा वार्तायाः माध्यमेन समस्या समाधानाय आहूताः सन्ति। प्रवक्ता सापकोटा विद्यालय शिक्षा विधेयकं स्वीकृतेः प्रतीक्षायामस्तीत्यतः अत्र सामूहिकं सन्देशं प्रवाहयितुं मन्त्रालयः सदैव तत्परोऽस्तीति उल्लिखितवान् अस्ति। विद्यालय शिक्षाधिनियम क्रियान्वयनस्य याचनां विदधाने शिक्षकैः काष्ठमण्डपे प्रदर्शनं विहितमस्ति। सर्वोच्च न्यायालयेन नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशक पदात् विहितस्य पदमुक्तस्य कुलमान घिसिङ इत्यस्य पदमुक्तेः सर्वकारस्य निर्णये अन्तरिमादेश प्रदानम् अस्वीकृतमस्ति। न्यायाधीशयोः डॉ कुमार चुडालस्य नित्यानन्द पाण्डेयस्य च न्यायपीठेन कुलमान इत्यस्य सर्वकारेण विहितस्य पदमुक्तेः निर्णयस्य उपरि प्राश्निक न्यायिक निवेदनस्य स्पष्टीकरणेन न्यायिक निवेदनस्य निरूपणं सम्भवतीति उक्त्वा अन्तरिमादेश प्रदानम् अस्वीकृतमस्ति। इति समाचारः।